एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल नेपाल सर्वकारस्य थारू कल्याणकारी सभा थर्वट थर्वान संयुक्त संघर्ष समितिश्च मध्ये षड्सूत्रीया सहमति धृता वर्तते। विधि न्याय संसदीय विषय मन्त्रालय ह्य सर्वकारस्य पक्षतः विधि न्याय संसदीय विषय मन्त्री लीलानाथ श्रेष्ठः संयुक्त संघर्ष समितेः पक्षतः संयोजकः रूक्मिणी चौधरी च सहमति पत्रे हस्ताक्षरणम् अकुरुताम्। संविदायाम् थर्वट थर्वान आन्दोलनस्य क्रमे टीकापुर घटनायाम् आरोपितेभ्य धनीराम चौधरी रेशमलाल चौधरी लक्ष्मणलाल चौधरीभ्य आक्षिप्तानां सम्पूर्ण न्यायिक प्रकरणानां प्रत्यावर्तनाय एतेषां मुक्तये च संविधान विधि सम्मत्या प्रयतितुं सहमति धृता वर्तते। सहमति पत्रे हस्ताक्षरणमनु विधि न्याय संसदीय विषय मन्त्री लीलानाथ श्रेष्ठः विभिन्नेषु समयेषु वार्तया विहितानां सहमतीनां निष्ठापूर्वकं क्रियान्वयनस्य विषये विश्वस्ताः भवितुम् अन्वरुणत। थारू कल्याणकारी सभा थर्वट थारूवान संयुक्त संघर्ष समितेः संयोजकः रुक्मिणी चौधरी सर्वकारेण सह बारम्बारं विहितायाः वार्तायाः पश्चात् षड्सूत्रीय सहमतौ प्राप्तं सहमति शीघ्रं क्रियान्वेष्यते च इत्यत्र आत्मनां विश्वासोऽस्तीति अगदत्। सांविधानिक न्यायपीठे न्यायाधीशानामेव विभाजनस्य अनन्तरं प्रधान न्यायाधीशेन चोलेन्द्र शमशेर जवरा इत्यनेन वरिष्ठतायाः आधारेण नूतनं न्यायपीठं संघटयितुम् उद्घोषितं वर्तते। सर्वोच्च न्यायालये प्रतिनिधिसभायाः विघटनस्य विषये पञ्जीकारितानाम् आदेशाभियाचन निवेदनानां श्रवणाय संघटिते पञ्चसदस्यीय सांविधानिक न्यायपीठे न्यायाधीशानां विभाजनस्य पश्चात् प्रधान न्यायाधीशेन जवराभिधेन वरिष्ठतायाः आधारेण नूतनं न्यायपीठं संघटयितुम् उद्घोषितमस्ति। प्रधानन्यायाधीशेन जवरा विधेन नूतन न्यायपीठम् अस्यैव ज्येष्ठस्य त्रयोविंशे दिवसे रविवासराय निर्धारितमस्ति। नेकपा एमाले दलेन आन्तरिकतां सुदृढीकर्तुम् अन्तिम समयं यावत् प्रयत्नाय निर्णीतं वर्तते। बालवाटार स्थाने ह्य उपविष्टे एमाले दलस्य स्थायी समितेः उपवेशे दलस्य आन्तरिकतां सुदृढीकर्तुम् प्रयत्नस्य विषये विमृष्टमिति प्रवक्ता प्रदीप ग्यवाली अज्ञापयत्। उपवेशेन लुम्बिनी प्रदेशस्य उपनिर्वाचने अन्तर्घातस्य कारणेन पराजितमिति निष्कर्षः प्रकाशितोऽस्तीति प्रवक्ता ग्यवाली अबोधयत्। उपवेशे प्रतिनिधिसभायाः विघटनमनु न्यायालय विचाराधीन न्यायिक प्रकरणेषु प्रभाव सर्जनत्वेन चालितानां बलसर्जनस्य अस्वस्थ गतिविधीनाञ्च विषये विमृष्टमासीत्। एवमेव उपवेशे सर्वकारेण आनीतम् आगामिनः आर्थिक वर्षस्य आयव्ययकम् राष्ट्रस्य आवश्यकतायाः पूरणे कोविड संक्रमणमनु आर्थिक पुनरुत्थाने समर्थम् अस्तीति विषये च विमृष्टमिति प्रवक्ता ग्यमाली अबोधयत्। शीत्यधिक षट्सहस्राणि जनाः कोरोना विषाणुना संक्रान्ताः सन्ति। गतदिने चतुर्विंशते घण्टानाम् अवधौ आराष्ट्रं षट्सहस्राणि अष्टनवत्यधिकाष्टशतञ्च जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि प्राप्तानां तथ्याङ्कानाम् अनुसारेण नेपाले कोरोना विषाणोः प्राप्त स्वास्थ्यलाभानां जनानाम् अंकमानः प्रतिशतं 0.2% स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य आराष्ट्रं कोरोना संक्रमणात् 68 अनेन सह नेपाले कोरोना विषाणो संक्रमणात् मृतानां जनानां संख्या योगतः 7,450+4,000 प्राप्ता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण सम्प्रति नेपाले 100,6,89+7,000 सक्रिय संक्रान्ता जना गृहीकान्तवासेषु उपचर्यमाणाः सन्ति। नेपालाय चीन सर्वकारेण अनुदान स्वरूपेण प्रदत्तानां कोविड 19 विरोधिनां 10 लक्षाणां मात्रायाः टीकाकरणानां मध्ये यो 9 लक्षाणि मात्रा नेपालम् आनीताः सन्ति। हिमालय एयरलाइन्स वायुसेवया लक्ष्यम नेपाल वायुसेवा निगमस्य विमानेन 8 लक्षाणि च टीकाकरण मात्राः आनीताः सन्ति। निगमस्य महाप्रबन्धकः डीम प्रसाद पौडेलः निगमस्य एयरबस नाम्ना विस्तीर्ण काय विमानेन 8 लक्षाणां मात्राणां टीकाकरणमानीतमिति अबोधयत्। अवशिष्टं लक्षैक मात्राणां टीकाकरणमानेतुम् अद्य हिमालय एयरलाइन्स वायुसेवायाः विमानं चीनदेशस्य कुनफिमिन नगरं प्रस्थीयमानम् अस्ति इति उक्तं वर्तते। अनया वायुसेवया स्वस्य सामाजिकोत्तरदायित्वस्य अन्तर्गतं लक्षद्वयस्य मात्राणां टीकाकरणं निःशुल्कम् आनीयते इति ज्ञापितं वर्तते। द्वितीय लहर्या कोविड 19 महामार्याः कारणेन सर्वकारः गत वैक्रमाब्दस्य माध्यमिक शिक्षा परीक्षां न सञ्चालयिष्यति। सोमवासरे उपविष्टेन मन्त्रिपरिषदः उपवेशेन कोविड उनविंशते महामार्याः कारणेन एतस्मिन् वर्षे इमां परीक्षां न सञ्चालयितुं निर्णीतं वर्तते। माध्यमिक शिक्षा परीक्षायाः परिणामः गतवर्षवद् आन्तर मूल्यांकन विधिना सार्वजनिकरिष्यते इति शिक्षा मन्त्रालयो ज्ञापयति। विवेकशील साझा दलस्य संस्थापक संयोजक तात्कालिक विवेकशील नेपाली दलस्य संस्थापक अध्यक्षश्च उज्ज्वल थापा ह्य चतुश्चत्वारिंशत वर्षाणां वयसि दिवंगत। सप्ताहद्वयात् पूर्वं कोरोना विषाणुना संक्रान्त थापा ललितपुरस्य मेडिसिटी चिकित्सालये उपचारस्य क्रमे दिवंगत इति चिकित्सालयेन ह्य प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। विवेकशील साझा दलस्य केन्द्रीय समिते ह्य उपविष्टेन आकस्मिकोपवेशेन पूर्व संयोजकस्य थापाविदस्य निधने गभीरं दुःखं व्यक्तवता शोक प्रस्ताव पारिति कृतोस्तीति दलाध्यक्षेण रविन्द्र मिश्रेण प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। इति समाचारः।